इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य श्वः च ओडिशायाः भुवनेश्वरे आरक्षि महानिदेशकानां महानिरीक्षकाणां च अखिल भारतीय सम्मेलने भागं ग्रहीष्यति। केन्द्रीय गृहमन्त्रिणा अमितशाहेन ह्यः त्रिदिवसात्मकम् इदं सम्मेलनम् उद्घाटितम्। त्रिदिवसीये एतस्मिन् सम्मेलने आन्तरिक सुरक्षा, आतंकवाद, आन्तर्जालिक अपराध, माओवादी आक्रमण, कृत्रिम समुत्थापितेषु विषयेषु चर्चा सम्भाव्यते। अस्मदीयेन वार्ताहरेण विज्ञापितं यत् अस्मिन् अवसरे विशिष्ट सेवायै राष्ट्रपति आरक्षि पदकानि अपि प्रदास्यन्ते। अत्रावसरे राष्ट्रिय सुरक्षा परामर्शदः अजीत डोभालः अपि उपवेशने एतस्मिन् स्वभूमिकां प्रस्तुतवान्। ध्यातव्यमस्ति यत् प्रधानमन्त्री ह्यः सायं भुवनेश्वरनगरं सम्प्राप्तवान्। तत्र असौ एकं सार्वजनिकोपवेशनम् अपि सम्बोधितवान्। भाजपेति दलस्य राज्यमुख्यालये भाजपादलैः, सांसदैः, विधायकैश्च सह वार्तां विहितवान्। भारत प्रशासनेन भणितं यत् बांग्लादेशे अल्पसंख्यकान् विरुध्य हिंस्रघटना सम्बद्ध स्थितिः दृष्टिपथि वर्तते इति। तत्र हिन्दूसमुदाये हिंस्रघटनाः घटिताः। वार्ताहरान् सम्बोधयन् विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयसवालः भणितवान् यत् तत्रत्य प्रशासनम् अल्पसंख्यकान् समेत्य सर्वेषां नागरिकाणां जीवन सुरक्षा स्वतन्त्रतायै च पूर्ण उत्तरदायी वर्तते। विदेशमन्त्री एस जयशंकरः सूचितवान् यत् बांग्लादेशे अल्पसंख्यकानां विरुद्धं हिंसायाः घटनाभिः सम्बद्धां स्थितिं प्रशासनं सततं निरीक्षमाणमस्ति इति। ह्यः लोकसभायां लिखिते एकस्मिन् प्रत्युत्तरे मन्त्री अवदत् यत् बांग्लादेशे हिन्दूनां विरुद्धं हिंसायाः घटनायाः प्रतिवेदनानि प्रशासनेन गभीरतया गृहीतानि सन्ति। असौ अवदत् यत् अस्मिन् वर्षे अगस्तमासे सम्पूर्णे बांग्लादेशे गृहाणि, व्यावसायिक संस्थाः च लुण्ठिताः। देवालयेषु, अन्येषु च पूजास्थलेषु आक्रमणानि जातानि। असौ अवदत् यत् ढाकानगरे भारतस्य उच्च आयोगः बांग्लादेशस्य अल्पसंख्यकानां स्थितिं निरन्तरं निरीक्षमाणः अस्ति। राज्यसभायाः उपाध्यक्षेण श्रीहरिवंशवर्येण देशस्य विकासे पूर्वराष्ट्रपतिनः पूर्वराष्ट्रपतेः भारतरत्न डॉ राजेन्द्रप्रसादस्य योगदानं प्रकाशितम्। श्रीहरिवंशः राजेन्द्रस्य समाजकल्याणाय तस्य च सम्पूर्णयात्रायाम् आगतानां समस्तसमाह्वानानाम् उल्लेखं कृतवान्। राज्यसभायाः उपाध्यक्षः नवदिल्ल्याः आकाशवाण्यां डॉ राजेन्द्र प्रसाद स्मारक व्याख्यानम् वैश्विक क्षितिज पर भारत की बढ़ती भूमिका इत्येतस्मिन् विषये एकं व्याख्यानं सम्बोधितवान्। डॉ राजेन्द्र प्रसादस्य योगदानस्य जीवनस्य च विषये जनानां मध्ये जागरूकतां जनयितुम् अपि असौ बलं प्रदत्तवान्। प्रसार भारत्याः प्रमुख कार्यकारी अधिकारी गौरव द्विवेदी आकाशवाण्याः भूमिकां प्रकाशयन् उक्तवान् च यत् स्थापना कालादेव आकाशवाणी राष्ट्रस्य स्वरः अभवत्। प्रसारभारत्याः सार्वजनिक प्रसारकत्वेन अन्यस्य कस्यापि सञ्चारमाध्यमस्य अपेक्षायाम् अस्याः भूमिका अधिका विस्तृता अस्ति। आकाशवाण्याः महानिदेशिका प्रज्ञा पालीवालगौडः अपि अस्मिन् अवसरे उपस्थिता अस्ति। फेंजल इति चक्रवातः ह्यः सार्धद्विवादने दक्षिण पश्चिम बंगालखातेः उपरि स्थितो जातः। क्षेत्रीय ऋतुविज्ञान विभागेन सूचितं यत् अयं चक्रवातभारः अद्य मध्याह्ने महाबलीपुरम कराईकलयोः मध्ये प्रविशति। तदर्थं तटीयक्षेत्रेषु तीव्रवायुरपि प्रवक्ष्यति। अण्डर 19 एशिया कप इत्येतस्यां क्रिकेट प्रतिस्पर्धायां भारतम् अद्य प्रातः दुबय्यां स्वीये प्रथमे समूहे ए इत्यस्मिन् द्वन्द्वे पाकिस्तानेन सह क्रीडिष्यति। स्पर्धायाः अस्याः प्रसारणं प्रातः अद्य सार्धदशवादने भविष्यति इति वार्ताः।